इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। ताइवान देशे शक्तिशालिना भूकंपेन न्यूनातिन्यूनं सप्त जनाः निहताः, सप्तशताधिकाश्च व्रणिताः सन्ति। क्षेत्रे सुनामी इत्याख्यस्य महौघस्य संचेतना च प्रख्यापितास्ति। विश्ववित्तकोषेन अनुमितं यत् वर्षेस्मिन् भारतस्य अर्थव्यवस्था सार्ध सप्त प्रतिशतानुसारं वरिवर्धिष्यतीति। जम्मू कश्मीरे लोकसभायाः प्रथमचरणीय निर्वाचने चतुर्थ ऊधमपुराख्यस्य लोकसभाक्षेत्रस्य 23,16,00,000 मतदातारः 12 प्रत्याशीनां भाग्यनिर्णयं विधास्यन्तीति। केन्द्रीयमन्त्रिणा डॉ एल मुरुगनेन सह अन्यैः 11 नूतन राज्यसभासदस्यैः अद्य शपथग्रहणं कृतम्। अपि च आईपीएल इति क्रिकेट स्पर्धा श्रृंखलायाम् अद्य विशाखापट्टनम् इत्यत्र वाईएस राजशेखर रेड्डी इति क्रिकेट क्रीडांगणे सायं 7:30 दिल्ली कैपिटल्स दलेन सह कोलकाता नाइट राइडर्स दलं सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। ताइवान देशे शक्तिशालिना भूकंपेन न्यूनातिन्यूनं 7 जनाः निहताः, सप्तशताधिकाश्च व्रणिताः सन्ति। ताइवान देशस्य पूर्वक्षेत्रीय तटेषु रिक्टर परिमितौ 10.4 तीव्रतायाः भूकम्पः आगतः। तदनन्तरं क्षेत्रे सुनामी इत्याख्यस्य महोघस्य संचेतना प्रख्यापितास्ति। भारत ताइपे संघेन ताइवान देशे भूकम्प सम्बन्धि किमपि सहायतां स्पष्टीकरणञ्च प्राप्तुम् आपत्संख्या प्रसारिताः सन्ति। आपत्संख्याः सन्ति 0905247906 तथा च ईमेल संकेतो वर्तते ad.ita@mea.gov.in इति। संघेन ताइवान देशे निवसतां भारतीय नागरिकैः आग्रहः कृतः यत् ते स्थानीय अधिकारिभिः निर्गत परामर्शानां दिङ्निर्देशानां च अनुसरणं कुर्वन्त्विति। विश्ववित्तकोषेन प्रोक्तं यत् वर्षेस्मिन् भारतस्य अर्थव्यवस्था 7.5% वृद्धेः अनुमानं वर्तते इति। अस्मै कालाय विश्ववित्तकोषेन स्वस्य प्राक्तनीय भविष्यवाण्यां 0.2% वृद्धिः संशोधितास्ति। सहैव भारतदेशः आगामिवर्षेऽपि 0.16% वृद्धिं गमिष्यतीति अनुमानमस्ति। जम्मूकश्मीरे अस्यैव मासस्य 19 दिनांके सम्पद्यमाने लोकसभायाः प्रथमचरणीय निर्वाचने चतुर्थ ऊधमपुराख्यस्य लोकसभाक्षेत्रस्य 23,16,00,000 मतदातारः 12 प्रत्याशीनां भाग्यनिर्णयं विधास्यन्ति। आकाशवाण्याः जम्मूक्षेत्रस्य वार्ताहरेण प्रोक्तं यत् संसदीय क्षेत्रमिदं किश्तवाड़, डोडा, रामबन, उधमपुर सहित कठवांतं यावत् विवृतमस्ति। क्षेत्रेस्मिन् 17,16,00,000 प्रायः जनाः पंजीकृताः सन्ति। येषु 8.5 लक्ष प्रायः पुरुषाः, 15,00,000+ महिलाः सन्ति। 13 मतदातारस्तु किन्नराः अपि सन्ति। भारत निर्वाचनायोगेन क्षेत्रेस्मिन् मतदानाय 37,26,000 मतदान केन्द्राणि विनिर्मितानि सन्ति। केन्द्रीयमन्त्रिणा डॉ एल मुरुगनेन सह अन्यैः 11 राज्यसभासदस्यैः अद्य शपथग्रहणं कृतम्। उपराष्ट्रपतिना राज्यसभाध्यक्षेण च जगदीप धनखडेन संसदभवने स्वकक्षे शपथग्रहणं कारितम्। एतेषु सदस्येषु बिहारतः प्रोफेसर मनोज झा, धर्मशिला गुप्ता, संजय यादवः, हिमाचलप्रदेशात् हर्ष महाजनः, हरियाणातः सुभाषचन्द्रः, महाराष्ट्रतः मेधा कुलकर्णी, चन्द्रकान्त हण्डौरः, कर्णाटकतः जी सी चन्द्रशेखरः, गुजराततः गोविन्दभाई ढोलकिया, उत्तरप्रदेशतः साधना सिंहः, मध्यप्रदेशतः अशोक सिंहः च सम्मिलिताः सन्ति। पूर्वप्रधानमन्त्रिणा डॉ मनमोहन सिंहेन सह राज्यसभायाः 56 सदस्याः अस्मिन् सप्ताहे उच्चसदनात् सेवानिवृत्ताः जाताः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonairgov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। वरिष्ठ भाजपादल नेत्रा केन्द्रीय मन्त्रिणा राजनाथ सिंहेन प्रोक्तं यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे अस्मद्देशः विश्वस्य पञ्चसु आर्थिकदृष्ट्या श्रेष्ठतमेषु देशेषु एकः समजायत। तेन अग्रे उक्तं यत् सप्तविंशत्यधिक द्विसहस्रतम वर्षं यावत् आर्थिकदृष्ट्या समृद्धेषु त्रिषु देशेषु एकः भारतदेशः भवेदिति क्षमतापि अस्मिन् देशे वर्तते। तेनोक्तं यत् भाजपेति दलं भारतं उन्नतिं प्रति नयनाय प्रतिबद्धमस्तीति। तेन एतदपि प्रोक्तं यत् विगत नववर्षेषु देशस्य पञ्चविंशतिकोटिजनाः निर्धनतायाः निकषिताः सन्तीति। सः गाजियाबाद क्षेत्रे भाषमाणः आसीत्। एतन्मध्ये गौतमबुद्धनगर क्षेत्रतः महेश शर्मणा नामाङ्कनमपि पूरितम्। कांग्रेसदलनेत्रा राहुलगांधिना अद्य मध्याह्ने केरलस्य वायनाड लोकसभाक्षेत्रे निर्वाचनाधिकारिणः सम्मुखं नामाङ्कनपत्रं पूरितम्। तेन कल्पेट्टानगरे एकस्य नैर्वाचनिकसम्मर्दयुतस्य पथसञ्चलनस्यापि नेतृत्वं कृतम्, यत्र सहस्रशः समर्थकाः तस्य सघोषं स्वागतं कृतवन्तः। अवसरेऽस्मिन् दलस्य महासचिवः प्रियंका गांधी, केसी वेणुगोपालः, अन्ये च राज्यस्य दलनेतारः उपस्थिताः आसन्। जम्मूकश्मीरे उपराज्यपालेन मनोज सिन्हा इत्यनेन आगामिनां नवरात्र वैशाखी ईदादिपर्वाणाम् आयोजनसन्नद्धतां ध्यात्वा ह्यः राज्यस्य सम्बन्धितविभागप्रमुख अधिकारिणाम् उच्चस्तरीयोपवेशनं समाकलितम्। राज्यपालेन च राज्यस्य आरक्षि अधिकारिणः निर्दिष्टाः यत् ते विभिन्नानां धार्मिकस्थलानां पर्यवेक्षणं कृत्वा सुरक्षासम्बन्धिताः सन्नद्धताः सुनिश्चयेयुः इति। राष्ट्रिय शैक्षिक अनुसन्धान अथ प्रशिक्षण परिषदा प्रोक्तं यत् एनसीईआरटी इति संस्था छात्रेभ्यः विद्यालयीय पाठ्यपुस्तकानां समयेन उपलब्धताम् आलक्ष्य यथासम्भव प्रयासं कुरुते। सन्देशे प्रोक्तं यत् प्रथम द्वितीय सप्तम अष्टम दशम द्वादश कक्षाणां त्रयस्त्रिंशल्लक्षसंख्याकानि पुस्तकानि मुद्रितानि, पुस्तकानि च विपण्यान्तं यावत् प्रापितान्यपि। एनसीईआरटी इति संस्थया अग्रे प्रोक्तं यत् तृतीय षट् कक्षयोः पुस्तकानि अस्य मासस्य अन्ते अथ मई मासे प्रकाशयिष्यन्ते। चतुर्थ पञ्चम नवम एकादश कक्षाणां पुस्तकानि अप्रैल मासान्तं यावत् आपणेषु उपलब्धानि भविष्यन्तीति संस्थया अभिभावकाः आश्वासिताः यत् ते चिन्तामुक्ताः भवन्तुति। संस्थायाः सन्देशोऽयं विश्वविद्यालयीय पुस्तकानाम् अनुपलब्धता सम्बद्धिताम् अपुष्टसूचनाम् आलक्ष्य आसीत्। भारत ऋतु विज्ञान विभागेन आईएमडी इत्यनेन अनुमानितम् अस्ति यत् अस्य मासस्य षड् दिनांकं यावत् कर्णाटक, ओडिशा, पश्चिमबंगाल, झारखण्ड, आन्ध्रप्रदेश, पुदुच्चेरी राज्याणां केषुचित् भागेषु तापतरंगस्य स्थितिः भविष्यतीति। ऋतु विभागेन तेलंगाना कर्णाटक राज्ययोः आगामि त्रिदिवसावधौ तटीय कर्णाटक, केरल, तमिलनाडु, पुदुच्चेरी, तटीय आन्ध्रप्रदेशे च पञ्चदिवसावधौ उष्णम् आर्द्रतापूर्ण ऋतोः सूचना ख्यापितास्ति। ऋतुविभागेन उक्तं यत् आगामि त्रिदिवसावधौ उत्तर पश्चिम मध्यपूर्व भारते अधिकतम तापमानं द्वितः त्रीणि डिग्री सेल्सियस यावत् संवर्धिष्यतीति। अन्ते क्रीडावार्तायाम्, आईपीएल इति क्रिकेट स्पर्धामालिकायाम् अद्य विशाखपट्टनम् इत्यत्र वाईएस राजशेखर रेड्डी इति क्रिकेट क्रीडांगणे सायं सार्धसप्तवादने दिल्ली कैपिटल्स दलं कोलकाता नाइट राइडर्स दलं सम्मुखीकरिष्यति। ह्यः रात्रौ बेंगलुरुस्थे एम चिन्नास्वामी क्रीडांगणे लखनऊ सुपर जायंट्स दलेन रॉयल चैलेंजर्स बेंगलुरु दलं 28 धावनांकैः पराजितम् इति वार्ताः।